third canto.
Aho bakijam stanokalakutam jigang sayapayadapyasadvi levi gatim datru citamatannam kamba dayalam saranam braje maha kastipnuatittapadavidhanat Satri Suba Shruviri Dhamana Jakanna Narim Purusha Sajato Bhavo Pradam Giharatim Chinati Sasadhanasa Vivardhamana Vidakti Manatra Karati Pumsa Harir padana smriti nivritasya samasta dukkham apta jagam asudharte marganti jatte mukha padma nidai Chanda suparnai rishayo vivikte jasya ghamarsada saridivaraya padam padam tithapada prapanna jatsaddha dhanaya sutabhatta cha bhaktva Samri jamane ridaye vedhaya Gyanena vairaga valena dhrira Braje matatte angri saroja pitham Panena te devo katha sudhaya Prabhidha bhaktva visayadasyaji Vairagya saram pratilabha bodham Jathanja sanyayur akrinatha dhrishnam akuntha dhrishnam Jetu tadiya saranam bhujakosha gandham Jigranti karna vivarai suti bata nitam Bhakta grihita charana paraya satisham Napaisi natha ridayam buruhat sapungsham Tam bhakti yoga paribhavita ritsaraja Asse sutekshita patha nanunata pungsham Jajjadhyata urugaya vibhavayanti Tattad vapupanayase sadanugrahaya Jaccha vrajanti animishari sabana vitva Dure jamahi uparina esprihaniya sila Bhattur mitha sujasasa kathanuraga Vaiklabha vaspakalaya pulaki kitanga Tashwaravinda nayanasya padaravinda Kinjal kamitsa tulasi makaranda vayu Antargata savivarena chakaratesam Sangsava maksarajasamapi chitta tanna Neha jatkarma dharmaya na viragaya kalpate na tirtha pada sevaoi जीवन्नपि मितहिषाम् परसंगं अजारणं पाशं आत्मनो कवय विदु सैव साधुसुकृत मक्षदारामपावृतं तितिक्षावकारुणिक श्रीद सर्वदेहिनम् अजातशत्रुवशन्त साधव साधुभूषणः मदाश्रया कथामृष्टा शृण्वन्ति कथयन्ति च तपन्ति विविधस्तापा नैतान्मद्गतचेतसा सतां प्रसङ्गान् मम वीर्यसंविद भवन्ति हृत्कर्णरसायनाकथा तज्जसनास्य अपवर्गवत्मनि श्रद्धारतिर्भक्तिरनुक्रमिष्यति नैश्चालक षष्ठे सामीप सारूप एकत्वम् अपि युत दीयमानं न गृह्णन्ति विना मत्सेवनं जना श्री भगवान उवाच कर्मणा दैव नेत्रेण जन्तुर्देह प्रपद्यते स्त्रिया प्रविष्ट उदरं पुंसोरेतकनाश्रये जन्नामधेय श्रवणानुकीर्तनान् जत्प्रान्न जाद स्मरणादपि कचि सादपि शब्द शवनाय कल्पते कुत पुनस्ते भगवान् दर्शना अहोवत शपचत गरियान् जज्वाग्रे वर्तते नाम तुभ्यम् ते पुस्तपस्ते जुहुभुः शश्नुवर्जा ब्रह्मानुचूर्नाम गृह्णन्ति जेते।